वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। सरस्वति नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। असाध्यस्साधकस्वामिन् असाध्यं तव किं वद, रामदूतकृपासिन्धो मत्कार्यं साधय प्रभो। सर्वेभ्यो नमो नमः। गतवर्गे अहं कमपि दोषं कृतवान्। मम अत्र संस्कृतकोशेषु अहम् इदानीं मम अपि इदानीमेव प्रवेशः, तदर्थं किञ्चित् मम अत्र दोषाः स्युः, कृपया क्षम्यताम्। अत्र दा इति धातुविषये अहं यच् इति तत्र अहम् एकं वाक्यम् उक्तवान्, भिक्षुकं यच्छति इति, परन्तु तत्र भिक्षुकाय यच्छति इति भवेत्, तत्र दानक्रियायां चतुर्थी कौशिकी। अपि च अन्यविषयः एकः भट्टः इति कुत्रापि आगतः, तत्र भट्टिकाव्यम् इति उक्तवान्, प्रायः भट्टिकाव्यम् इति, तदपि दोषः, भट्टिकाव्यम् इति उक्तवान्। भट्टिकाव्यम् अपि भवेत्, अपि च अन्य ग्रन्थः अस्ति आख्यातचन्द्रिका इति क्रियाकोशः, भट्टमल्लविरचितः इति। भट्टमल्लः इति कश्चन पण्डितः, सः रचितवान् एषा आख्यातचन्द्रिका इति। तर्हि भट्टमल्लः अपि स्यात् भट्टौ इति, परन्तु शब्दकल्पद्रुमे अन्यत्र भट्टमल्लः इति अपि दत्तमस्ति, तर्हि भट्टौ इति भट्टिकाव्यं वा एषः ग्रन्थः वा इति अहं न जाने, तर्हि कृपया तत्र अवधानं ददातु। यतोहि ममापि तावत् ज्ञानं नास्ति, तावत् ज्ञानं, तर्हि एवमेव अहम् ऊहां कृतवान्। अस्तु, अपि च इदानीं वयं नूतनकोशं प्रति गच्छामः, वाचस्पत्यम् इति एकं पूर्वम् अहं तस्मिन् विषये किञ्चित् वदामि। वाचस्पत्यम् इति कोशः, वाचस्पत्यमपि अपि च तदपि संस्कृत कोशः अस्ति। तर्हि वाचस्पत्यस्थविषयः वाचस्पत्यमपि बृहत् कोशः अस्ति। तत्रापि इदानीं मुखपृष्ठम् एकवारं पश्यामः। अत्र 1873 इति अस्ति, शब्दकल्पद्रुमः 1822 कोशः अस्ति, पुरातनः, परन्तु वाचस्पत्यम् इतोपि अग्रे अस्ति, परन्तु तदपि शतवर्षात् पूर्वम् एव आसीत्। अत्र वाचस्पत्यम् इति 5407 पेजस् इति अस्ति खलु, तत्र तत्र 5407 पेजस् अस्ति, तर्हि बृहदस्ति। एवम्, अपि च एकक्षणम्, अत्र वाचस्पत्यस्थविषयाः अकारादिक्रमेण शब्दसूची, तदर्थाश्च शब्दलिङ्गनिर्देशः, एवं प्रकृतिप्रत्ययनिर्देशः, व्युत्पन्नशब्दनिर्देशः, व्युत्पत्तिः अपि दीयते। विल्सन् शब्दकोशः, विल्सन् इति कश्चन शब्दकोशः अस्ति, एकक्षणं दर्शयिष्यामि. अत्र अस्ति खलु विल्सन् सान्स्क्रिट् इङ्ग्लिश् डिक्शनरि, तदपि पुरातनकोशः अस्ति. तस्मिन् तस्य कोशस्य अपेक्षया बृहदस्ति. विल्सन् शब्दकोशः, शब्दकुल्पत्रुमादिकोशस्थाः, तदन्ये च शब्दाः सन्ति. अन्यत्र प्रसिद्धकोशेषु अविद्यमाना अपि वैदिकशब्दाः, तत्रापि न सन्ति. वैदिकशब्दाः तु अनेके अत्र सन्ति. पूर्वनिर्दिष्टाः शास्त्रीयपारिभाषिकशब्दाः, एवं श्रौतसूत्रपारिभाषिकशब्दाः. गृहसूत्रं श्रौतसूत्रं सूत्रादयः सन्ति, तेषु पारिभाषिकशब्दाः. पारिभाषिकशब्दाः इत्युक्ते टेक्निकल् टर्म्स् इति अर्थः इति स्वीकुर्मः. स्मृतिपारिभाषिकशब्दाः, पुराण उपपुराणविषयाः, रामायणमहाभारतस्थविषयाः, राज्ञां वंशादिवर्णनं यथा पुराण उपपुराणादिषु, ब्रह्माण्डनिरूपणम् इत्युक्ते कास्मालजि, ब्रह्माण्डनिरूपणम् इति चिन्तयामि. आयुर्वेदपारिभाषिकशब्दाः, आयुर्वेदज्ञानपारिभाषिक शब्दाश्च, निर्दिष्टानां शब्दानां संस्कृतवाङ्मयतः उदाहरणानि, एवञ्च वस्तुतः परिशील्यमाने ग्रन्थः अयं संस्कृतविद्याजिज्ञासूनां शब्दजिज्ञासूनां च असदृशकोशः, एवं बृहत्कोशः अस्ति. अपि च किञ्चित् तस्य विवरणं किञ्चित् पश्यामः वयम्. अस्तु, अन्वेषाय एते अंशाः. शब्दः प्रातिपदिकेन अन्वेष्टव्यः. शब्दकल्पद्रुमे प्रथम एकवचनम् उपयुज्य कर्तव्यम् इति उक्तवान्, अत्र प्रातिपदिकेन एव, यथा अन्यकोशाः आप्टे मुनिय विलियम्स्. ते पुल् पु इति पुल्लिङ्गः, स्त्री स्त्रीलिङ्ग, न इति नपुंसकलिङ्गः. त्री इति त्रिलिङ्गेषु भवति, त्रिषुलिङ्गेषु भवति. विशेषणम् इति वक्तुं शक्नुमः. अव्ययः, अपि च अत्रापि वाचस्पत्य कोशकारः अपि वङ्गदेशतः अस्ति आसीत्, तर्हि तत्रापि वकारबकारयोरभेदः अस्ति, कल्पद्रुमसदृशः. अपि च द्वित्वमपि भवति तत्र, अचोरः अभ्यां द्वे इति उक्तवान् अहं, तेन सूत्रेण द्वित्वमपि भवति, यथा रेपः, अचुवर्णः स्वरः, तदनन्तरं रेपः, तदनन्तरं स्थितस्य हल् वर्णस्य द्वित्वं भवति. अस्तु, धातोः अर्थाः सप्तम्यां, कल्पद्रुमसदृश धातोः अर्थाः सप्तम्यां भवति. अपि च हलन्तानां धातूनाम् अन्ते अकारः उच्चारणार्थं कल्पद्रुमसदृशः, पूर्वमेव उक्तवान् अहं. कविकल्पद्रुमे उच्चारणार्थं हलन्तधातूनाम् अन्ते अकारः स्थापितवान्, कल्पद्रुमः तदेव अनुसरति. अपि च वाचस्पत्यकोशः अपि तदेव अनुसरति. अपि च उपसर्गयुक्तदातवः मूलधातुस्थले, एवम् एतदेव यदा वयं पूर्वं दृष्टवन्तः शब्दकल्पद्रुम कोशे उपसर्गसहितधातूनां आवलिः नास्ति एव. उपसर्गसहित इदानीम् अधिगम् इति शब्दः धातुः, उपसर्गपूर्वकधातुः अस्ति, तस्य विवरणं शब्दकल्पद्रुमायां न भवति एव. वाचस्पत्ये वाचस्पत्यकोशे तदस्ति. एवं तत् तदेकम् अस्ति ड्राबैक् इति वदामः खलु, कल्पद्रुमे बहु मुख्य अंशः एकः नास्ति, तदस्ति उपसर्गपूर्वक धातोः दातवः. इदानीम् अत्र अस्ति किञ्चित् विवरणम् आङ्ग्ले अपि. वाचस्पत्यं काम्प्रिहेन्सिव् संस्कृत डिक्शनरी, इट् इस् अ लेटर् डिक्शनरी रिटन् बै तारानाथ तर्कवाचस्पति भट्टाचार्य इति, तस्य आयुकालः एवं, सो 1812 to 1886, इन् सिक्स् वाल्यूम्स्. तर्हि एकः तत्र किमपि किञ्चित् क्लेशः अस्ति, आतः पर्यन्तं very extensive, first five volumes. After that, the rest are compressed into one volume. Kimartam atra kimapi asti Colonel G. A. Jacob iti handful of popular maxims current in Sanskrit literature iti eka pustakam asti. Idanim laukika nyayaha iti vadamakalu idanim kakataliya nyayaha iti sarvam tatsarvam atra asti pustaka popular maxims iti tatra asti vachaspatim sa Sanskrit lexicon of 5442 pages by Pandit Taranatha Tarka Vachaspati, Calcutta. It is very full up to the end of the letter pa, 4550 pages, while the rest of the alphabet is squeezed into 900 pages. It is said that the Bengal government, which largely subsidized the undertaking, ordered it to be curtailed. If that is so, it is it did a very unwise thing indeed, right? So tarhi he was working on it. Apparently there was some lack of funds and they asked him to stop it and finish it quickly. So he just finished everything. Apija Vachaspatim builds on Kalpadruma and gives the meanings of dhatus with upasargas. So the kavi Kalpadruma kimartham shabda kalpadrume upasarga purvakam nasti iti chet, kavi Kalpadruma does not have upasargas for dhatus. There is a follow up work on upasarga mandanam by mandana mantri. Kavi Kalpadrumasya anantaram ग्रन्थः एकः आसीत् तत्तु उपसर्गमण्डनम् इति उपसर्गमण्डनम् मन्त्रमन्त्री दट् इस् आल्सो अ बुक् क्रिटिकल् एडिशन् बै दावल् पटेल् जस्ट् फार् युर् इन्फर्मेशन् अस्तु एवम् अस्ति इदानीं कोशं प्रति गच्छामः प्रथमम् अहं तत्र रामशब्दः इति स्वीकरोमि सर्वदा परन्तु तत्र किं नास्ति इति किमर्थं नास्ति इति वदामि राम इति प्रातिपदिकम् उपयुज्य एव अन्वेष्टव्यम् अत्र राम इति शब्दः बहु न्यूनमस्ति अत्र किमर्थं तत्र पकाराद् अनन्तरम् अस्ति तदर्थं बहु विरलः बहु न्यूनमस्ति विषयः अत्र ददति सः राम कर्त्रे रं कर्त्रे ज्ञै इति एवं अपि च इदानीं कृष्णः इति स्वीकुर्मश्चेत् बहु सम्यक् भवति कृष्णः इति चेत् बृहदस्ति विषयः यतोहि ककारः पकारात् पूर्वम् अस्ति इदानीं ऐ डोण्ट् वाण्ट् टु गो इन् टु डीटेल्स् तर्हि एवमेव भगवतः अवतारभेदे वासुदेवे देवकीनन्दने इति अपि च अन्यविषयाः अस्ति तत्र अन्यः अस्तु पर्यायशब्दानि शब्दाः सन्ति परब्रह्मणि वेदव्यासे अर्जुने ओ एवम् अत्र अस्तु परब्रह्मणि अपि कृष्णः अपि वद वेदव्यासः अपि कृष्णः अर्जुनः अपि कृष्णः मध्यमपाण्डवे च कृष्णवर्णात् कृष्णवर्णत्वात् अपि च कोकिलः अपि कृष्णः काकः अपि कृष्णः एवं बृहदस्ति इदानीं पुराणः पुराणात् आगच्छति खलु तदर्थं बहु सः भूरि विषयः अस्तु एवं तदनन्तरम् एकं दर्शयितुम् इष्टवान् एतदपि उपारोपयामि कोर्स् वेब्सैट् मध्ये वाचस्पत्यम् इति तस्य फ्रण्ट् म्याटर् इति किमपि अस्ति अत्र किञ्चित् पठामि अहं इह खलु पुरुषां यां काञ्चित् पुरुषः या काञ्चित् भाषाम् अभ्यसितुम् ईहमानाः प्रयतन्ते तदर्थज्ञानसाधनं तद्भाषाव्याकरणं कोशाञ्च अधिगन्तुम् इति वाट् इस् द मीनिङ्ग् आफ् कलोन् रेकार्ड् ऐ डी इट्स् अ क्वश्चन् ऐ विल् कम् टु दट् क्वश्चन् इन् अ फ्यू मिनिट्स् अस्तु अत्र बहु सन्ति, बहु बहवः विषयाः सन्ति, परन्तु अहं किं वक्तुम् इच्छामि इति चेत् अस्तु, एतत् देशी देशादि संस्थापि संस्थापितविद्यासमाजविभागप्रधानाध्यक्षं डिरेक्टर् इति पदे अभिषिक्तम्, एम् ए इति उपाधिकं श्रीयुक्तं एच् उड्रि इति कश्चन अस्ति, अहं दर्शयिष्यामि किम् इति एकक्षणम्। अत्र उड्रो इति सः एम् ए इन्स्पेक्टर् आफ़् स्कूल्स् लोवर् प्रान्स् आफ़् बेङ्गाल् इति सः एव उक्तवान् तत्र, नो सम् वाट् एवर् ऐ एम् टु एड् विल् बि पेड् अन्लेस् द वर्क् इस् कम्प्लीटेड् इति। तदर्थं किं किञ्चित् तस्य किम् आसीत् फार् तारानाथ तर्कवाचस्पति, हि वास् रन्निङ्ग् औट् आफ् टैम् एण्ड् सो ऐ थिङ्क् द फण्डिङ्ग् वास् कट् बै दिस् बेङ्गाल् गवर्मेण्ट् इन्स्पेक्टर् आफ़् स्कूल्स्, सो देट्स् वै ऐ थिङ्क् हि कुडन्ट् कम्प्लीट् द आल् द सिक्स् वाल्यूम्स् इन् द अत्र अत्र लिखति सः आम् सम्भावयामि एतत् पुस्तकं प्रायः दशभिः खण्डैः सम्पूर्णं स्यात् इति। सो हि वास् प्लानिङ्ग् फार् 10 वाल्यूम्स् आफ़् दिस् डिक्शनरी, बट् आफ्टर् 5 वाल्यूम्स् प्रोबब्ली दे टोल्ड् दट् ओके देर् इस् नो ऐ वि गोण्ट् पे यू फार् द वर्क् इति प्रायः। प्रयतिष्ये च तथा यथा षड्भिर्मासैः एकैकं खण्डं प्रचारयामि इत्यादि अत्र। तर्हि एव्री 6 मन्त्स् हि वाण्टेड् टु कम् औट् वित् अ वाल्यूम्, बट् समहौ ऐ थिङ्क् हि रन् औट् आफ् हि कुडन्ट् मीट् द डेड् लैन्स्, सो दे डिन्ट् फण्ड् द प्राजेक्ट्, सो ऐ थिङ्क् हि स्टाप्ड् आफ्टर् 6 वाल्यूम्स्, आफ्टर् 5 वाल्यूम्स् हि वास् जस्ट् क्विक्लि फिनिश्ड् द होल् थिङ्ग्। एवम् अस्तु, अपि च अत्र प्रमाणत्वेन उल्लिखित कोशनामानि, एवम् अत्र प्रथमवर्गे अहं सर्वम् उक्तवान्, सर्वं नास्ति प्रायः केचन कांश्चन कोशान् दर्शित नामानि कोशस्य केषाञ्चन कोशानां नामानि उक्तवान् अहम्। इदानीं अजयपालकृतः नानार्थसङ्ग्रहः इत्यादि। ओके, आफ्टर् दिस् द फ्रण्ट् मेटर्, ऐ जस्ट् वाण्टेड् टु गो थ्रू द फ्रण्ट् मेटर् बिकास् इट् इस् यूस्फुल् फर् यू। अपि च अत्र अब्रिवेशन्स् इति वदामः खलु, तत्र अतः अत इत्युक्ते अथर्ववेदः, अग्निपु इत्युक्ते अग्निपुराणम्, एवं रेफरेन्सस् इति, मच् मोर् रेफरेन्सस् देन् आप्टे डिक्शनरि। सो आल् दीस् थिङ्ग्स् ऐ मीन् दिस् ऐ विल् अप्लोड् इन् द कोर्स् वेब्सैट्, इट् विल् बि यूस्फुल् फर् यू। एवम् अपि च ग्रन्थकर्तृवंशादि, तारानाथतर्कवाचस्पतिः इत्यस्य वंशादिः वा अथवा कस्य ग्रन्थस्य इति न जानामि अहम्। ऐ थिङ्क् इट् इस् द लैफ् हिस्ट्री आफ् तारानाथतर्कवाचस्पतिः। ऐ डोण्ट् नो वेदर् द तर्कवाचस्पति द टैटल् आर् सम् डिग्री हि हेस्। अस्तु, अपि च आदिवाचस्पत्यम् इति, मोस्ट् रीसेण्ट्लि द आर् एस् सि पि द राष्ट्रिय संस्कृतं विद्यापीठ इन् तिरुपति, दे रीप्रिण्टेड् दिस् डिक्शनरि अरौण्ड् 1970, सो दट् इस् द आदिवाचस्पत्यं, तस्य अस्ति प्रिफेस् फार् दट् दिस्। अपि च वाचस्पत्यस्थ विषयाः इति अहं स्लैड् मध्ये दर्शितवान्। एवं तदनन्तरम् अत्र अस्ति वाचस्पत्याभिधाने प्रतिपाद्यानि इति, सो दिस् इस् अ मोर् एक्स्पाण्डेड् वर्षन् आफ़् वाट् आर् देर् इन् द डिक्शनरि। अत्र कोशे के विषयाः सन्ति इति, उणादिप्रत्ययपरि अस्तु, संवृत्य उदाहरणं, पाणिनीयलिङ्गानुशासनं, पाणिनीयप्रत्ययपरिनिष्ठितरूपम्, गुणादिप्रत्ययपरिनिष्ठितरूपम् इति एवं सर्वम्। अपि च योगाचारपरिभाषितशब्दानाम् अर्थस्तन्मर्थञ्च इति सर्वम् एवम्। All these things are there in the dictionary, so it is quite a very comprehensive dictionary. And Valmiki Ramayana Pratipadya Vishayaha, Mahabharata Pratipadya Vishayaha, then Purana Adishu Prasiddha Rajarshinam Sankshepena Sankshepeneti Vrittani. Evam सर्वम् अस्ति, एतदेव अहं दर्शयितुम् इष्टवान्। अस्तु, इदानीं कोशं प्रति गच्छामः। अस्तु, कलोन् रेकार्ड् इति एव प्रश्नः आसीत् इति मन्ये अहं, क्षणम्। देर् वास् वन् क्वश्चन्, वाट् इस् द कलोन् रेकार्ड् ऐ डि? So this is for correction. So if you go into this corrections tab, so basically if you find a typo, you can give them which colon ID, which head word there is a typo and type of correction, and then they will go, they will correct this, because this is a dictionary which is work in progress. So if there are any errors, you can report errors. So that is a colon record ID. After that, printed book page. So this I have already mentioned, I think. So this is page number, and B is the column number. There are two columns here in the dictionary, in the printed version. So this is the page number, and there are A and B column. So if you can, this just gives some bookkeeping things here. So if you go to Krishna here, Krishna, he says it's in the column B. So you go to column B. Here Krishna is here, but this is very difficult to read, so that's why the digitization helps. Okay, evam anantaram itanim Ishwarah iti svikramah. Ishwara, Ishwara iti shabdah अन्य शास्त्रेषु अपि, दर्शनशास्त्रे तु ईश्वर कः इति बृहदस्ति, तत्सर्वम् अत्र दीयते, महादेवे कन्दर्भे इति सर्वम्। प्रथमम् ईश्वरच् इति व्युत्पत्तिः ददाति, तदनन्तरं महादेवे कन्दर्भे पातञ्जलोके इति सर्वं। वन् थिङ्ग् ऐ वा जस्ट् वाण्टेड् टु मेन्शन् दिस्, ईश्वर if you are searching for this shabda in vachaspatyam in your phone will crash, because it is such a huge entry, the phone cannot phone will run out of memory. So just I'm giving you a caution. It says how much of details he has given in this entry. If you are using color dict as the phone app and you are searching Ishwara in Vachaspatyam, your phone will crash. Astu. Not the phone, the app will crash. Evam, atra bahava vishayaha santi. Evam. So, because I spent quite some time in Kalpadruma, I am not going to go into the details of Vachaspatyam. Vachaspatyam is also very comprehensive that way. Okay, and then there was some in the Kalpadruma koshe aham kim krutavan atrapi vishayah santi evameva from these fields there are a lot of details iti uktva aham kim krutavan ekekasya एकैकस्य विद्यास्थानेषु अहं पदं चित्वा अन्वेषणं कृतवान् खलु, तथा अत्रापि किञ्चित् कुर्मः। सो वाट् ऐ डिड् इन् कल्पद्रुमा वास् ऐ जस्ट् टुक् सम् वर्ड्स् फ्रम् ईच् आफ़् दोस् फील्ड्स् आर् सम्थिङ्ग् and then looked at it. So let me just take some random fields. Like, for example, here it says Grihya Sutra, Shrauta Sutra, all these things from the Veda. Idanim Vaidika Shabdaha iti. Evam aham sikaromi Pusha. Pushan iti. Pushan itikte Surya. Surya iti artha. Aditya Vede. Surya Aditya Vede iti. Atra Bha iti asti. Bha iti te Bharatam. Mahabharata Bhagavata. Aham na janami iti. Praya. Astu. Iti ngau tu. Pushni, Pushani, Pushi iti. Atra ngau iti te ngi pare. Iti saptam yante iti artha. Pushni iti. Tatra akaranta allopanaha ityanena sutrena. Pushni iti bhavati. Apicha Pushani iti. Nani sambudyoho. Atra nani sambudyoho iti ascha. Allopanaha ityasya nishedaha. Apicha. Vibhashangishyoho ityanena Pushi iti. Trishu traya rupa trayam asti atra prithivyam stri nigantuhu iti danam prithivyam stri pushan iti prithivi shabdam stri lingesho api bhavati prithivi iti arte tatra pushana shabde adrishyam atra prithivi stri linga prayogaha pushana iti shabde drashyam iti. अस्तु किमर्थम् अहं स्वीकृतवान् अत्र ऋग्वेदः इति अस्ति तदर्थमेव पूषण्वत् सूर्ययुक्ते पृथिवीयुक्ते च इति अस्तु अनन्तरं किं किमपि स्वीकरोमि इदानीं पुराण उपपुराणविषयः इति इदानीं नलः नल शब्दः स्वीकुर्मः नलमहाराजः इति तत्र तस्य वंशादिः कः इति अत्र वीरसेनात्मज च एकः नैषधीयचरित्रे अस्ति तस्य विवरणम् इति नलो अस्तु कुत्र अस्ति आसीद् राजा नलो नाम वीरसेन वीरसेनसुत नृपः इति भारते वनपर्वणि इति कश्चन अस्ति एवं तस्य चन्द्रवंशत्वं वंशी वंश्यत्वम् इति इदानीं वंश विषयाः सर्वम् अत्र दीयते किमर्थं द्वित्वम् अस्तु एकं पूषन् नकारान्तशब्दः वा आम् पूषन् इति नकारान्तशब्दः अपि च सूर्य किमर्थं द्वित्वम् अहम् उक्तवान् अचोरः अभ्यां द्वे इत्यनेन यदि अच्वर्णः तदनन्तरं रेपः तदनन्तरं स्थितस्य हल्वर्णस्य द्वित्वं भवति अचोरः अभ्यां द्वे इत्यनेन तदर्थं द्वित्वं सूर्य इत्यस्मिन् अस्तु तदनन्तरं किं स्वीकरोमि अत्र ब्रह्माण्डनिरूपणम् अत्र खगोल इति दृष्टवन्तः खगोल खगोल अहं प्रातिपदिकम् उपयुज्य एव इदानीम् अन्वेषणं करोमि पश्यन्तु अस्तु ते गोलाकारे आकाशन परिधौ सूर्यकिरण प्रचारयोग्य देशे ग्राहद्याद् आधारे वायं वायं शब्दे शभेदः वायंशभेद भेदे अस्तु एवम् अत्रापि कल्पद्रुमवत् बृहदस्ति खगोल इत्यस्य अपि भवन्तः एव पठन्तु अहं न प्रविशामि अन्ते अस्तु ऐ नो दट् ऐम् गोयिङ्ग् ऐम् जस्ट् टचिङ्ग् द सर्फेस्, परन्तु वाचस्पत्यकोशः शब्दकल्पद्रुमवत् एव अस्ति, इतोपि अधिकमस्ति ते एवमेव. तत्र किमपि दर् इस् नथिङ्ग् मच् डिफ़रेण्ट् अबौट् इट्. इफ् दर् इस् एनिथिङ्ग् डिफ़रेण्ट् ऐ विल् टेल्. ओके, इदानीं धातुं प्रति गच्छामः. भू इति अत्र भू प्राप्तौ इति अपि दृष्टवन्तः वयम्. अत्र भू सत्तायां भुवादिगणपरस्मैपदि अकर्मकधातु सेट्. अत्र वाचस्पत्यकोशः तु रूपाणि सर्वाणि न दर्शयति, परन्तु अत्र रूपाणि अपि दर्शितानि. इदानीं भवति, अभूत्, भवति इति लट्लकारः, अभूत् इति लङ् क्षम्यतां लुङ् अपि च बभूव लिट्. भवते दुरितक्षयं यथोक्तैः इति इदानीम् अस्ति उपसर्गपूर्वक अधि इति, तस्मिन् विषये अहं एकं भूसत्तायाम् इति अस्ति. अत्र किञ्चित् सरलीकृतम् अस्ति, किञ्चित् सरलदर्शनार्थम् अस्तु. अधि इति योगः, अधि प्लस् इति अस्ति, आधिक्येन भवने ऐश्वर्ये इति अधिभू इति अस्ति. अत्र अनुभू, अनुभवे, ज्ञानभेदे सकर्मक, अनुभवशब्दे दृश्यम्, अन्तर्भू, तिरोभावे इति अर्थे अस्ति. अहम् उक्तवान् सप्तमी, सर्वं सप्तम्याम् अस्ति, सप्तम्यन्तम्. अभिभू इति तिरस्कारे, आविर्भू, प्रादुर्भू प्रथमप्रकाशे, उद् उद्भू उत्पत्तौ, तद् अकर्मक अकर्मकधातुः अस्ति. इदानीम् अभिभू इति सकर्मकधातुः अस्ति, अनुभू इति सकर्मकधातुः अस्ति, तिरोभू, पराभू, एवं परिभू, प्रतिभू इति तुल्यरूपभवने, प्रतिभू इति तुल्यरूपभवने, प्रतिभूः इति शब्दरूपमस्ति, विभ्रू, विभूः, व्याप्तौ. अत्र विभुः इति भवति, न तु विभूः. व्यतिभू, अत्र व्यतिभूः. शम्भू, शम्भू इति सम्भाति, णिच् सम्भावना, णिच् 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 प्रयोगे सम्भावना, सम्भाव्यते इति एवम्. एवमेव अत्रापि अस्ति, एकवारं तत्र अत्रापि एवमेव अस्ति. अहं किञ्चित् तत्र रक्तवर्णेन स्थापित्वा किञ्चित् उक्तवान् अस्तु. एवम् इदानीं नूतनं हृ इति सुक्रमः. हृ, हृ हरणे भ्वादिगणे उभयवदि धातुः, द्विकर्मकधातुः अस्ति. अकर्मकं सकर्मकः, अकर्मकः सकर्मकः, द्विकर्मकः अपि अत्र दर्शयति सः. अनिट् इति हरति, हरते इति उभयवदि. अहर्षीत्, अहृत, जहार, जह्रे, हरिष्यति, हरिष्यते इति सर्वम्. अपि च कर्मणि लकारादि मुख्ये ह्रीरयते, अहारी इति सर्वम् अत्र दर्शितम् अस्तु. इदानीम् अत्रापि उपसर्गपूर्वकम् अस्ति, तदपि अहम् अत्र अनुहरते, आत्मनेपदिधातुः अस्ति. इदानीम् अनु हृ इति आत्मनेपदित्वमेव, न तु उभयपदिनम्, आत्मनेपदिनमेव सूचयति अस्तु. अपहृ इति अपहरति, अभिहृ समभिहृ, अभ्यवहृ अव्यवहरति यत्र अम् अभि वि आ इति सर्वम् उपसर्गः अव दूरीकरणे अवहृ इति एवं हृ धातोः उपसर्ग रूपाणि बहूनि सन्ति एवमेव अत्र अस्ति खलु उदर उक्षेपे उद्धरति उद्धरति इति उद्धरति इति उद्धरति उद्धरति उक्षेपणे इति टु लिफ्ट् अप् इति अर्थः इदानीं वयं जानीमः उपसर्गेण धात्वर्थः बलादन्यत्र नीयते प्रहार आहार संहार विहार परिहारवत् इति इत्युक्ते अत्र उपसर्गेण हृ धातुः इफ् यु आड् द उपसर्ग द मीनिङ्ग्स् आर् आल् ओवर् द प्लेस् इति वदामः खलु तथा तदर्थमेव अहं हृ धातुः स्वीकृतवान् अत्र अस्तु अत्र हृ धातोः उपसर्गरूपाणि तु बहूनि सन्ति एवम् अनन्तरं पूर्वमेव दर्शितवान् अत्र ष्ठा इति धातुः ष्ठा इति स्था गतिनिवृत्त्यौ गतिनिष्ठतौ निष्ठत्थौ इति तत्र सूत्रमेकमस्ति पूर्वं न उक्तवान् धातु आदेशः सः इति इदानीं धातुपाठे सकारादिदातवः सर्वे सकारादिदातवः एव धातु आदौ षकारः अस्ति चेत् मूर्धन्यषकारः अस्ति चेत् सकारः भवति अस्तु हृ मेल् मध्ये प्रेषयितुं शक्नोति हृ धातु अहं तदपि अहम् आरोपयामि कोर्स् वेब्सैट् मध्ये तदपि तत् करपत्रमपि आरोपयामि अस्तु अत्रापि अधिष्ठा इति अस्ति अधिष्ठा अनुष्ठा अवष्ठा इति सर्वम् तथैव तदनन्तरं सूत्रं नो नः इति अस्ति णद् इति स्वीकुर्मः णद णद इति धातुः अस्ति परन्तु तद् नद् इति णो नः इति सूत्रेण णकारस्य नकारः भवति अस्तु अव्यक्तशब्दे इति अर्थः तस्य नदति प्रणदति इति अस् अत्रैव ददति नदति इति लट्लकाररूपः परन्तु प्र उपसर्गपूर्वकम् अस्ति चेत् तत्र नकारस्य णकारः भवति एव किमपि सूत्रमस्ति णत्वप्रकरणे अहं न स्मरामि इदानीं नदति प्रणदति इति यत्र यत्र णकारादि धातुः अस्ति तत् प्र उपसर्गः अस्ति चेत् णत्वं भवति एव इदानीं धातुपाठे दन्त्यनकारस्य धातुः अस्ति दन्त्यनकारादिधातुः अस्ति चेत् तर्हि प्र उपसर्गेण णत्वं न भवति न रसाभ्यां नूनसमानपदे इति उत्सर्गसूत्रमस्ति तदनन्तरं किमपि अत्र समानपदः नास्ति खलु अस्तु उपसर्गः अपि धातुः समानपदे नास्ति खलु समानपदम् इत्युक्ते तस्मिन्नेव पदे भवेत् अत्र समानपदं नास्ति तदर्थं किञ्चित् अन्यं सूत्रमस्ति अस्तु णद् इति धातुः अपि च अत्रापि अनु अभि इति उपसर्गपूर्वकं सर्वं दत्तम् एवमेव युज् इति पश्यामः युज् युज युज इति अन्वेष्टव्यं युज इति युज इति इदं युनक्ति अत्र उभयपदिधातुः अस्ति रुदादिगणे सकर्मकः अनिट् युनक्ति युङ्क्ते इति प्रास्मैपदिरूपम् आत्मनेपदिरूपम् इरित् इति अस्ति, इर् इति अस्ति, युजिर् इति धातुः, तदर्थम् इर् इति इत् अस्ति, तदर्थं किमपि कार्यं भवति। अत्र किं वक्तुमिष्टवान्, अत्र अजन्तोपसर्गात् उदश्च परस्मात् आत्मनेपदिः, यदि अजन्त उपसर्गः अस्ति अपि च उद् इति उपसर्गः अस्ति चेत् तस्य परम् आत्मनेपदित्वम् एव इति उक्तं तत्र। अस्तु, तत्र वार्तिकमेकमस्ति, स्वराद्यन्तोपसर्गात् इति वक्तव्यम् इति कश्चन वार्तिकमस्ति। इत्युक्ते अजादि उपसर्गः वा अपि च अजन्त उपसर्गः वा अस्ति चेत् सर्वदा आत्मनेपदं पदित्वमेव युज् धातोः। तत्र अत्र अजन्तम् इति अत्र उक्तम्, अजादि उपसर्गः यत्र हलन्तम् अस्ति, उद् इति उपसर्गः एकः एव, अवगतं वा? आङ्ग्ले अपि वदामि, इदानीम् अजन्त उपसर्गः अपि च अजादि उपसर्गः, द उपसर्ग शुड् एण्ड् इन् अ ववल् आर् स्टार्ट् इन् अ ववल्, इफ् सच् कैण्ड् आफ् उपसर्ग इस् देर् फार् युज् धातुः सर्वदा आत्मनेपदित्वमेव। तर्हि अत्र अजन्त उपसर्गात् इति उक्तं, परन्तु उदश्च इति उक्तम्, उदस् इत्यनेन उदश्च इत्यनेन उद् एव उपसर्गः, अजादि उपसर्गः अपि च हलन्त उपसर्गः इति, अवगतमिति मन्ये। अस्तु, अत्र अनु आत्मनेपदम्, अनु अनुयुज् अनुयुङ्क्ते इत्येव रूपं, न तु अनुयुनक्ति इति रूपम्। अभि इति सर्वं सर्वे आत्मनेपदित्व आत्मनेपदरूपं रूपाणि एव भवति, अभियुङ्क्ते अभियोगे, उद् आयोजने, उद् युज् उद्योगः आयोजना इति, उपयुज् उपयुङ्क्ते उपयोगः इति सर्वं सर्वाणि रूपाणि, नियुज् नियुङ्क्ते नियोगः इति, सम् इति उपसर्ग अजादिनात् नास्ति अजन्तः नास्ति, संयोगे तत्तु परस्मैपदिः एव, परस्मैपदिदातुम् एवमेव, संयुनक्ति संयोगः इति। अत्र अजन्त उपसर्गः प्रति प्रतियुक्ते प्रतियुङ्क्ते प्रतियोगः इति सर्वाणि। Is it only for yuj dhatu? Yes, it's only for yuj dhatu. Astu, atra kayapi bhrui iti astu, bhrui iti su. Bhrui iti dhatu katane, bhravi iti aha bhruve. अस्य आर्धधातुके वच् वचि आदेशे आदेशः नित्यः, तेन विव्रतिः, इदानीम् आर्धधातुकस्य वच् इति आदेशः भवति इति उक्तम्। अत्र उवाच इति रूपं तु बहु प्रसिद्धः, ब्रह्मणभ्रु इत्यादि सिद्धम्। अस्तु, ओ अस्तु, इति तारानाथ तर्कवाचस्पत्यभिधाने बकारादि शब्दार्थसङ्कलनम्। अस्तु, अत्र बकारादिशब्दस्य अन्तम् अन्तः अस्ति। अस्तु, एवं भ्रू इति शब्दः, बकारः किम्, अत्र बकारः इत्युक्ते भ इत्यस्य प्रथम, अस्तु अत्र भ इति एवम्, अस्तु किञ्चित् अत्र अस्तु भकारः अत्रैव अस्ति, किञ्चित् अत्र दोषः अस्ति, इदर् इस् एन् एरर् इन् द ऐ मीन् दे डिण्ट् सेपरेट् दिस् होल् एण्ट्री, भ इति भकारः, प वर्गीयश्चतुर्थवर्णे वर्णः, वर्ण व्यञ्जनवर्णभेदः इति सर्वं भकारः अस्ति। भ्रू इत्यस्य अत्रैव समाप्तम् इति श्रीतारानार्थतर्कवाचस्पतिभट्टाचार्यसङ्कलिते वाचस्पत्य अभिजाने, अभिजान इत्युक्ते कोशः, बकारादिशब्दार्थसङ्कलनम्। अत्र भ्रू इत्येव बकारादि शब्दस्य अन्त अन्तिमवर्ण अन्तिमशब्दः इति अर्थः. एवम् अस्तु. किमस्ति मम अन्य विषयः? अस्तु, एवमेव अहं वक्तुम् इष्टवान् वाचस्पत्यविषये. अन्यं किमपि नूतनः नास्ति, वैशिष्ट्यं नास्ति. आगामिवर्गे अहं किं करोमि, सर्वं किमपि सम्मरी रूपेण वदामि, अपि च अन्य कोशाः किमपि एवं दर्शयिष्यामि. ऐ विल् गेट् इन् टु लिटिल् बिट् आफ् अदर् कोशास् अण्ड् वाट् आर् अदर् आन्लैन् रिसोर्सस् अवैलबल्. अत्र कोऽपि प्रश्नः, केऽपि प्रश्नाः सन्ति वा? प्लीस् रेस् योर् हेण्ड् इफ् यु आर् हेविङ्ग् एनी क्वशन्स्. वि हाव् 10 मिनट्स्, ऐ केन् आन्सर् क्वशन्स् आर् ऐ केन् जस्ट् सर्च् सम् मोर् वर्ड्स् इन् वाचस्पत्यकोश. अपि च what else did I want to show? Okay, this is nice. I think I showed everything what I wanted to show today. So this is in if you go to archive.org, you can get the whole dictionary, Vachaspatyam. I am looking at this. Okay, there is some hand raised. I will go to the hand raised. नमस्ते जी वि आर् महोदय.
जी नमस्कारः. लेक्सिकन् संस्कृत लेक्सिकन् मध्ये ये ये कोशाः सन्ति ते सर्वं भवान् किञ्चित् इन्ट्रोडक्षन् कुर्वन् शक्नोति वा?
संस्कृत लेक्सिकन् इत्युक्ते अत्र अस्तु अस्तु
कोशः
ओ दिस् एते वा?
एते
अहमपि सर्वं न जानामि, यतोहि अत्र मम अभिप्रायः वदामि. इदानीं औट् आफ् दिस् आप्टे इस् जस्ट् इनफ् फार् द इङ्ग्लिश् डिक्शनरीस्. इट् गिव्स् यू क्वैट् सम् मैलेज् इति मन्ये अहम्. अपि च तर्हि एते सर्वे ऐ मीन् मै पर्सनल् ओपिनियन् इस् ऐ एम् नाट् अ वेरि ग्रेट् फ्यान् आफ् दिस् other the foreigners coming and making dictionaries because they don't come in the traditional framework. Maybe it is
shabda sagara iti asti
tat kim shabda sagara eta tu samyak asti iti manyaham kshanam tatrapi koshah eva
idanam ban yadi kinchit pathayati patishyati am
अस्तु अहं चिन्तयामि, किञ्चित् चिन्तयित्वा वदामि अग्रिमे सप्ताहे किमपि वदामि अस्मिन् विषये अपि. अपि च अन्यकोशाः अपि सन्ति, विशेषकोशाः. दिस् इस् नाट् अवेलेबल् अवेलेबल् आन् स्पेशल् रिक्वेस्ट् इति अस्ति तत्र, अत्र नास्ति इति मन्ये. एकक्षणम् अहं पश्यामि. So this is just a sample is given here. Api cha evameva uktavan yatha uktavan apte
anya asti introduction to Mahabharata
as a specialized dictionary am asti kridanta rupamala api asti
mala iti
am satyam api cha evam asti aham api na drishtavan avasaram
अस्माकं तत्र प्रवेशं कर्तुं शक्नोति भवान्.
अस्तु,
उपयोगं भवति.
परन्तु मयि तादृश सामर्थ्यमपि नास्ति इति मन्ये अहं.
भवान् निम्नछात्राः एव.
न अहमपि तादृशमेव. इदानीं व्योम संस्कृतपाठशालायां तु ज्ञानिनः एव ज्ञानी नः एव पाठयन्ति, अहमेव अज्ञानी अत्र. अस्तु
महाभारत कल्चरल इंडेक्स पुराणिक एनसाइक्लोपीडिया इति
सर्वमस्ति स्पेशलैज्ड् डिक्शनरी इति उक्तवान् खलु पूर्वम् अहं
एकैक किञ्चित् इन्ट्रोडक्षन् तदेव
अस्तु अहं चिन्तयित्वा वदामि भो
जी
अस्तु धन्यवादः कल्याणकृष्णन्जि
हाय् गुड् मार्निङ्ग् टु यु आल्
गुड् मार्निङ्ग्
ऐ एम् क्वैट् इम्प्रेस्ड् एण्ड् enlightened to see you opening the window to the world of Sanskrit for those who are so far away, and there's been tremendous amount of work. So I just want to say thank you very much for helping us open our eyes to the large volumes of literature and dictionaries available out there. Thank you again. I'm really impressed by your understanding of this, despite the fact that you're an electrical guy like myself. So again, thank you very much for your support of your national language. This should have been the national language, but it isn't. Thank you again.
Thank you. Thank you. So one thing I wanted to tell you is this Sanskritam books, publishing this big books is actually for the economy of scale, people do not publish this. For example, if you go and ask any publisher, can you publish Sabdakalpathruma again, edit it and do it? They say, okay, how many people will buy this thing? So I think it's a very good way of going all these online libraries. It's very easily available, and also searching is easy. So one thing is this, there's a huge, and this is the right time when there's an explosion of all these online Sanskritam libraries. So there's so much of information available. And as we are talking, as I'm talking, there are a lot of people who are digitizing books. It's amazing. For example, I wanted just Akhyata Chandrika, as I mentioned. This book is just, Google just digitized this and then it's available. So you can just go get this book, read the book. That's it. You can just download it in your library and it is available for you. Astu. What is the difference between Purana Index and Purana Encyclopedia? I don't know. I've not read all the dictionaries here. Maybe somebody who's interested, they can go into details of this. So as I said, next class, I wanted to just give you, it's not only this place here, this website here. I've restricted myself to Sanskrit lexicon, this website. There is also other websites like archive.org, as I mentioned. This, in archive.org, you can get more, a lot of books you want. And I'll just introduce that. And also, there is something called Wikisource. There are books there, and also Sanskritam Wikipedia and Wikishabdakosha. All these things are all there. So, and also there are desktop apps available to get all these dictionaries in your desktop also. I will give an introduction to that. And also, if you have other questions based on whatever we studied, by the way, I mean, I am also a student, just entered this whole thing, but when I was trying to get dictionaries, it is there is one dictionary called SpokenSanskrit.org. I will also show that to you, which is I won't call this a dictionary. This is just a, just say it's a dictionary, but it's just a collection of words. So this for introduction for first level Sanskritam learners or spoken Sanskritam learners, it is good. Parantu agre yadi saramaha vayam tarhi koshasya anivaryata bhavati tarhi kavya patane sarvam tarhi katham kosham drashtavyam iti kopi na mam kopi kenapi darshitam mam tarhi ahameva kichit. So I struggled the way through it, and so I just wanted to share what my experience was with this. Okay, let me have, there is another question. There is also a simple one. I don't know what Sundar Raman ji, I don't understand what you mean by that. If you can. There is also a simple one. Okay. Yeah, so Sanskrit dictionary api bahu useful bhavati mahodaya astu. Sanskritdictionary.com. Okay, so I didn't know about it. It has quotes from Moni Williams and Afte and few others. Okay. So there are. Okay. This simple one for beginners. Okay. Which one is that? Okay. Uttamam Vijaya Hetirajan. Bhavati self muted asti. Kapya unmute karotu. Vijaya Hetirajan Bhagini. Astu. Oh, spoken Sanskrit is very good. I'm not saying it's not good. But it is not a kosha. I mean, it doesn't give you whether it is all the grammar things. Atmanepaditvam va, parasmaipaditvam. Kimapi anya doshaha api santi. Spoken Sanskrit dictionary madhye doshaha santi. Parantu prathamikastariye to bahu samyakasti. I still go to spoken Sanskrit for some things. For example, to find dhatus. अस्तु विजया भगिनी भवती अन्म्यूट् करोतु स्वयं अस्तु इफ् देर् आर् नो क्वश्चन्स् ऐ मीन् ऐ एम् डन् वित् वाचस्पत्यम् इफ् एन् देर् इस् एनी वाचस्पत्यम् ऐ थिङ्क् यु जस्ट् स्टार्ट् यूसिङ्ग् इट् सो आल् दीस् डिक्षनरीस् इट्स् जस्ट् गुड् टु स्टार्ट् यूसिङ्ग् इट् देन् टु अटेण्ड् क्लासस् स्टार्ट् यूसिङ्ग् इट् अण्ड् यु विल् मे बि यु विल् हिट् वाल्स् you'll get some hit some roadblocks, but by practice you can get quite a bit. I mean, I learnt most of my grammar also from kosha, from dictionaries. Yadi idanim apte dictionary upayujya eva vyakarana vargam api patayitum shaknumaha sarva whatever you need vyakaranam shaha sarvam tatra bhavati eva. Yeah, it has entries from more than 16 dictionaries. Maybe it has like, so for example, spoken Sanskritam is good, but it is not an extent of the dictionary like Apte and all. Astu. Kindly introduce Amarakosha is one question. So Amarakosha is actually one thing which I also want to learn. So we will request please request Vyoma Samskrita Pathashala to introduce that course. Okay, Amarakosha app. Okay, Amarakosha app. So, okay, I don't know about the Amarakosha app. Thank you. Amarakosha app is it a phone app, Android app? It's probably, if it's a phone app, it's good. Okay, Savita Sajjan has a question. Namaste.
Namaste, sir. Actually, for thesis work or etc., I was using this, the Kosha Darshan, whatever you have told it there, regarding towards the Shabda Kalpadruma, Vachaspatya. These are all related to, and Puranas are also have used it. And it has helped me a lot in writing the thesis work there for PhD works or etc.
Okay,
and thank you, sir. Thank you, sir, for giving the one of the opportunity to learn this Kosha Darshan, sir. In Ayurvedic, at least, it has helped me a lot, sir.
It's very good. I mean, I think this should also start the all. There are a lot of other fields which are not being touched. So I think it's a good opportunity for people to dig into it and get all of them up to date. Right? We are still probably in some fields we are still having knowledge which is outdated, like 2 centuries ago back. Those have to be updated according to the new modern world, I think.
Sir, actually in Chakrapani or etc., in Ayurvedic textbooks, we are coming across commentaries there. But sometimes we are going to understand it superficially. But when I learnt this Kosha Darshanam from you, sir, but it has been helped me a lot understanding in the from the commentaries, sir. Especially Chakrapani Dattaha, Sarvanga Sundara Tikas. These are going to help a lot in the learning the knowledge of any Sanskrit language.
That's very good to hear. Thank you. Okay, one more thing is there is one comment here. Kindly mention that Sanskrita Kannada Shabdakosha by Sri Chakravarti Srinivasa Gopalacharya is a wonderful, very extensive dictionary. 6 volumes published by Babco Publications. Dhanyavadaha. Tarhi, etadev api asti. Regional language dictionaries also are some are very good. I heard Telugu also has wonderful dictionaries. Telugu, Sanskritam, Sanskritam, Telugu dictionaries. Kannada also is there. Marathi is there. I am trying to find some good dictionary for Tamil, but in Tamil Nadu there is not much Sanskritam Tamil dictionaries. Okay. But in other Hindi dictionary, Sanskritam Hindi dictionary is also very good. I think Apte also has one dictionary on that. So you can also use those dictionaries. They also are very good. Also, okay, there is one comment saying that Amarakosha app is in Google Play available. It is developed by Srujanja. Okay, I've seen quite a few apps by Srujanja. He also has an app for Vachaspatyam. Okay, Tamil Sanskrit dictionary by Harihara Sharma. Oh, dhanyavadaha. I didn't know that. Mastu. Okay, there was a hand raised by VN Meena, but she's not here now. Okay, good. All right, so if there are no more questions, I can conclude the class. Next class, we will go into some general overview. Can you kindly repeat the name of Kannada Dictionary? Okay, the Kannada Dictionary is by Sri Chakravarti Srinivasa Gopalacharya. And it's a 6 volume publication by Babco Publication. Okay. V and Meena is back. V and Meena ji. Namaste. V and Meena. So I am not able to hear you. अस्तु अत्र समापयामः मङ्गलं श्लोकमुक्त्वा स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महिम्महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु सो इफ देयर आर एनी क्वेश्चंस वी कैन डिस्कस नेक्स्ट क्लास धन्यवादः